ओम नमो भगवते वासुदेवाय। अथैकोनविंशोऽध्यायः। मैत्रेय उवाच। अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः। प्रहस्य प्रेम गर्भेण तदपाङ्गेन सोऽग्रहीत्। ततः सपत्नं मुखतश्चरन्तमकुतोभयं जघानोत्पत्य गदया हनावसुरमक्षजः। साहता तेन गदया विहता भगवत्करात्। विघूर्णिता पतद्रेजे तदद्भुतमिवाभवत्। स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम्। मानयन् समृद्धे धर्मं विश्वक्सेनं प्रकोपयन् गदायामपविद्धायां हाहाकारे विनिर्गते। मानयामास तद्धर्मं सुनाभं चास्मरद्विभुः। तं व्यग्रचक्रं दितिपुत्राधमेन स्वपार्षदमुख्येन द्विषद्यमानम्। चित्रावाचो तद्विदां खेचराणां तत्रास्मासन् स्वस्तिते मुं जहीति। सतम् निशाम्यात्तरथाङ्गमग्रतो व्यवस्थितम् पद्मपलाशलोचनम्। विलोक्य चामर्ष परिप्लुतेन्द्रियो रुषासदन्तच्छदमादशच्छ्वसन्। करालदंष्ट्रश्चक्षुर्भ्याम् सञ्चक्षाणोदहन्निव अभिप्लुत्य स्वगदया हतोऽसीत्याहनद्धरिम्। पदासव्येन ताम् साधो भगवान् यज्ञसूकरः। लीलयामिषतः शत्रोः प्राहरद्वातरम् हसम्। आह चायुधमाधत्स्व घटस्व त्वं जिगीषति। इत्युक्तः स तदा भूयस्ताडयन् व्यनदद्भृशम्। तां सापततीं वीक्ष्य भगवान् समवस्थितः। जग्राहलीलया प्राप्तां गरुत्मानिवपन्नगीं स्वपौरुषे प्रतिहते हतमानो महासुरः। नैच्छद्गदां दीयमानां हरिणा विगतप्रभः। जग्राहत्रिषिकं शूलं ज्वलज्ज्वलनलोलुपं यज्ञाय धृतरूपाय विप्रायाभिचरन् यथा। तदोजसा दैत्यमहाभटार्पितं चकासदन्तः खौदीर्णदीधिति। चक्रेण चिच्छेदनिशातनेमिना हरिर्यथा तार्क्ष्यपतत्रमुज्झितम्। वृक्णे स्वशूले बहुधारिणा हरेः प्रत्येत्य विस्तीर्णमुरो विभूतिमत्। प्रवृद्धरोषः सकठोरमुष्टिना नदन् प्रहृत्यान्तरधीयतासुरः। तेनेत्थमाहतः क्षत्तर्भगवानादिसूकरः। नाकम्पतमनाक्वापि स्रजाहत इव द्विपः। अथोरुधा सृजन्मायां योगमायेश्वरे हरौ यां विलोक्य प्रजास्त्रस्ता मे निदेश्योपसंयमम्। प्रभौर्वायवश्चण्डास्तमः पांसवमैरयन् दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव। द्यौर्नष्टभगणाभ्रौगैः सविद्युत्स्तनयत्नुभिः वर्षद्भिः पूयकेशासृग् विण्मूत्रास्थीनिचासकृत्। गिरयः प्रत्यदृश्यन्त नानायुधमुचो नघ। दिग्वाससो यातु धान्य शूलिन्यो मुक्तमूर्धजाः। बहुभिर्यक्षरक्षोभिः पत्यस्वरथकुञ्जरैः आततायिभिरुत्सृष्टा हिंस्रावाचोति वैशसाः। प्रादुष्कृतानां मायानामासुरीणां विनाशयत्। सुदर्शनास्त्रं भगवान् प्रायुङ्क्तदयितं त्रिपात्। तदादिते समभवत् सहसा हृदिवे पथुः। स्मरन्त्या भर्तुरादेशं तनाच्चासृक् प्रसुश्रुवे। विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम्। रुषोपगूहमानोमुं ददिशेव स्थितं बहिः। तं मुष्टिभिर्विनघ्नन्तं वज्रसारैरथोक्सजः। करेण कर्णमूलेहन् यथा त्वाष्ट्रं मरुत्पतिः। साहतो विश्वजिताय वज्ञया परिभ्रमद्गात्र उदस्तलोचनः। विशीर्णबाह्वङ्ग्रिशिरोरुहोपतत् यथा नगेन्द्रो लुलितो नभस्वता। क्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम्। अजादयो वीक्ष्य ससंसुरागता अहो इमां को नुलभेत संस्थितिम्। यं योगिनो योगसमाधिनारहो ध्यायन्ति लिङ्गात सतो मुमुक्षया। तस्यैष दैत्यऋषभः पदाहतो मुखं प्रपश्यन्सनुमुत्ससर्जः। एतौ तौ पार्षदावस्य सापाद्यातावसद्गतिम्। पुनः कतिपयैस्थानं प्रपत्स्येते हजन्मपिः। देवा ऊचुः नमो नमस्तेऽखिलयज्ञतं तवे स्थितौ गृहीतामलसत्त्वमूर्तये। दिष्ट्याहतोऽयं जगतामरुन्तु दस्त्वत्पादभक्त्या वयमीश निर्वृताः। मैत्रेय उवाच। एवं हिरण्याक्षमसह्य विक्रमं ससादयित्वा हरिरादिसूकरः। जगामलोकं स्वमखण्डितोत्सवं समीडित पुष्करविष्टरादिभिः। मया यथा नोक्तमवादिते हरे कृतावतारस्य सुमित्रचेष्टितम्। यथा हिरण्याक्ष उदारविक्रमो महामृधे क्रीडनवन्निराकृतः। सूत उवाच इति कौशारवाख्यातामाश्रित्य भगवत्कथाम्। क्षत्तानन्दं परं लेभे महाभागवतो द्विज। अन्येषां पुण्यश्लोकानामुद्दामयशसां सताम्। उपश्रुत्य भवेन्मोद श्रीवत्साङ्कस्य किं पुनः योगजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजं क्रोशन्तीनां करेणूनां कृच्छ्रुतो मोचयद्रुतं तं सुखाराध्य मृजुभिरनन्य शरणैर्नृपिः कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः यो वै हिरण्याक्षवधं महाद्भुतं विक्रीडितं कारणसूकरात्मनः शृणोति गायत्यनुमोदतेऽञ्जसा विमुच्यते ब्रह्मवधादपि द्विजाः एतन्महापुण्यमलं पवित्रं धन्यं यशस्यं पदमायुराशिषां प्राणेन्द्रियाणां युधिशौर्यवर्धनं नारायणोऽन्ते गतिरङ्गशृण्वताम् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे हिरण्याक्षवधो नामैको नविंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।